नस्नेहाच्छरणं प्रयान्ति भगवन् पादद्वयं ते प्रजा हेतुस्तत्र विचित्रदुःखनिचयः संसारघोराणवः अत्यन्तस्फुरदुग्ररश्मिनिकरौ व्याकीर्णभूमण्डलो क्रैष्मः कारयतीन्दुपादसलिल छायानुरागं रविः क्रुद्धाशी विषदष्टदुर्जय विषय ज्वालावली विक्रमो विद्याभेषज मन्त्रतोय हवनैर्याति प्रशान्तिं यथा तद्वत्ते चरणारुणाम्बुजयुगस्तोत्रोन्मुखानां विघ्नाः काय विनायकाश्च सहसा शाम्यन्त्यहो विस्मयः संतप्तोत्तमकाञ्चन क्षितिधरश श्रीस्पर्धिगौरद्युते पुंसान्त्वच्चरणप्रणामकरणा पीडाः प्रयान्ति क्षयम् उद्यद् भास्कर विस्फुरत् कर्षत व्याघात निष्कासिता नानादेहि विलोचन द्युतिहरा शीघ्रं यथा शर्वरी त्रैलोक्येश्वरभङ्गलब्धविजया दत्यन्तरौद्रात्मका नानाजन्मशतान्तरेषु पुरतु जीवस्य संसारिणः को वा प्रस्खलतीह केन विधिना कालोग्रदावानलान् न स्याच्चेत्तव पादपद्मयुगलस् स्तुत्यापगावारणम् लोकालोकनिरन्तरप्रवितत ज्ञानैकमूर्ते विभो नानारत्न स्वपिनद्ध दंड रुचिरश श्वेतात पत्र त्रय पत्पाद द्वय पूत गीत रवत शीघ्रं द्रवन्त्या मया दल्पाध्मात् मृगेन्द्र भीम निनदान् वन्यायथा कुञ्जराः दिव्यस्त्रीनयनाभिराम विपुलश श्रीमेरुचूडामणि भास्वद्बालदिवाकरद्युतिहर प्राणीष्टभामण्डल अव्याबाधमचिन्त्यसारमतुलम् त्यक्तोपमं शाश्वतं सौख्यं त्वच्चरणारविन्दयुगलस् स्तुत्यैव संप्राप्यते यावन्नोदयते प्रभापरिकरः श्रीभास्करो भासयंस्तावद्धारयतीह पङ्कजवनम् निद्रातिभारश्रमं यावत् त्वच्चरणद्वयस्य भगवन् न स्यात्प्रसादोदयस्तावज्जीवनिकाय एष वहत् प्रायेण पापं महत् शान्तिं शान्तिजिनेन्द्र शान्तमनसस् त्वत्पादपद्माश्रयात् सम्प्राप्ताः पृथिवीतलेषु बहवः शान्त्यर्थिनः प्राणिनः कारुण्यान् मम भाक्तिकस्य च विभो दृष्टिं प्रसन्नां कुरु त्वत्पादद्वयदैवतस्य गदतः शान्त्यष्टकं भक्तितः